रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। नवनिर्वाचितस्य राष्ट्रपतेः रामचन्द्र पौडेलस्य शपथग्रहण समारोह अद्य सम्पद्यते। नेपालस्य तृतीय राष्ट्रपतौ अस्यैव फाल्गुनस्य पञ्चविंशे दिवसे निर्वाचितस्य राष्ट्रपतेः पौडेलस्य अद्य दिवा एकवादने शीतल निवासस्थिते राष्ट्रपति कार्यालये आयोज्यमाने विशेष समारोहे कार्यवाहक प्रधान न्यायाधीशेन हरिकृष्ण कार्किण पदगोपनीयतयोः शपथेन प्रतिज्ञापनस्य कार्यक्रमोस्तीति राष्ट्रपति कार्यालयो ज्ञापयति। राष्ट्रपतेः विद्यादेवी भण्डारिणः कार्यकालः गतरात्रौ द्वादशवादनात् समाप्तो वर्तते। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाभिधेन दलस्य वरिष्ठ नेत्रा रामचन्द्र पौडेलेन दत्तम् त्यागपत्रम् स्वीकृतम् वर्तते। वरिष्ठ नेत्रा पौडेलेन अस्यैव फाल्गुनस्य पञ्चविंशे दिवसे संघीय लोकतान्त्रिक गणतन्त्र नेपालस्य राष्ट्रपतिपदे निर्वाचनानन्तरम् नेपाली कांग्रेस दलस्य पदादायित्वात् साधारण सदस्याच्च त्यागपत्र प्रदानस्य पश्चात् सभापति देउवा दलस्य विधानस्य अनुसारेण गतदिवसतः एव क्रियान्वयनत्वेन त्यागपत्रमिदं स्वीकृतवान् इति दल कार्यालयस्य मुख्य सचिवेन कृष्णप्रसाद पौडेलेन ह्य प्रकाशितायं विज्ञप्तौ लिखितं वर्तते। सभापतिना देउवाभिधेन राष्ट्रपति पदस्य गरिम्नः मर्यादायाः दायित्वस्य च संविधानस्य मर्म भावनयोः अनुरूपं कार्यं सम्पादयितुं पौडेलः सफलः शिष्यति, एतदीय कार्यकालः सदैव स्मरणीय भविष्यतीति विश्वासेन राष्ट्रपतये शुभकामना व्यक्तीति विज्ञप्तौ उल्लिखितम् वर्तते। चैत्रस्य तृतीय दिवसे सम्पत्स्यमानाय उपराष्ट्रपतेर्निर्वाचनाय चतुर्णाम् जनानाम् प्रत्याशिता स्थापिता वर्तते। जनता समाजवादी दलात् द्वयम्, जनमत दलात् एकः, नेकपा एमाले दलात् च एकश्चेति कृत्वा चतुर्णाम् जनानाम् प्रत्याशिता स्थापिता अस्ति। उपराष्ट्रपति पदाय प्रत्याशिताम् पुरस्कुर्वद्भिः चतुर्भिः एव प्रत्याशिभिः प्रत्याशिता न प्रत्यावर्तितेति हेतोः निर्वाचनाधिकृतस्य कार्यालयेन ह्य एतेषाम् अन्तिम नामावलिः प्रकाशिता वर्तते। जनता समाजवादी दलात् रामसहाय प्रसाद यादवः, प्रमिला कुमारी च, जनमत दलात् ममता झा, नेकपा एमाले दलात् च अष्टलक्ष्मी साक्य बोहरा उपराष्ट्रपति पदस्य प्रत्याशिनः सन्तीति निर्वाचनाधिकृतः महेश शर्मा पौडेलः अज्ञापयत्। निर्वाचनाधिकृतस्य कार्यालयेन जनता समाजवादी दलस्य पक्षतः उपराष्ट्रपति पदाय प्रस्तुत प्रत्याशितस्य रामसहाय प्रसाद यादवस्य प्रत्याशितां स्थापयितुं निर्णीतम् सदपि जनता समाजवादी दलस्यैव अपर प्रत्याशिन्या राष्ट्रिय सभायाः सदस्यया प्रमिला कुमारी इत्यनया प्रत्याशिता प्रत्यावर्तिता नास्ति। जनता समाजवादी दलस्य प्रवक्ता मनीष सुमनः दलस्य आधिकारिक प्रत्याशी रामसहाय प्रसाद यादवोस्तीति अवोचत। प्रवक्ता सुमनः रेडियो नेपालेन सह ब्रुवन् उपराष्ट्रपतेः प्रत्याशिनी प्रमिला कुमारी समय सापेक्षम् आधिकारिकम् प्रत्याशिनम् समर्थयिष्यतीति अज्ञापयत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः कथयति सर्वकारस्य प्राथमिकतायाम् अर्थतन्त्रस्य सुधारो वर्तते। असौ नेपाल निर्माण व्यवसायी महासंघस्य चतुर्विंश्याम् साधारण सभायाम् ह्य देशस्य आर्थिक स्थितेः सहजावस्थायाम् अवर्तमानायामपि भयावस्थायाम् नास्तीति स्पष्टीकृतवान्। प्रधानमन्त्री प्रचण्डः देशे दशमासेभ्योऽपि अधिककालाय वस्तूनाम् सेवायाश्च आयाताय संचितिः वर्तते इति असूचयत। असौ सर्वकारस्य ध्यानं सम्प्रति आर्थिक गतिविधिः कथं गतिशीलो विधेयः, अर्थतन्त्रस्य सूचकाङ्केषु कथं सुधारः आनेतव्यः इत्यत्र चास्तीति स्पष्टीकृतवान्। प्रधानमन्त्री प्रचण्डः विकास निर्माणस्य कार्यं राज्येन निर्धारिते समये एव पूरणीयमिति उदैरयत्। निर्माण व्यवसायीभिः निर्धारिते समये गुणस्तरे मापदण्डेषु चैव कार्यं विधातुं प्रतिबद्धैर्भाव्यमिति प्रधानमन्त्री प्रचण्डः अगदत्। कार्यक्रमे नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा अर्थतन्त्रे सृष्टाम् समस्याम् समाधातम् सर्वकारेण गभीरेण भाव्यमिति विचारम् व्यक्तवान्। मध्य पर्वतीय राजमार्गस्य अन्तर्गते सिन्धुली जनपदस्य फिक्कल ग्रामपालिकायाः चतुर्थ वडा क्षेत्र स्थिते कुइभीर स्थाने ह्यो दुरापन्नायाम् यात्रीवाहक बसयानस्य दुर्घटनायाम् षड् जनाः मृताः सन्ति। मृतकेषु ओखलढुङ्गा जनपदस्य पञ्च, उदयपुर जनपदस्य एकश्च सन्ति। सिन्धुली जनपद प्रहरी कार्यालयस्य प्रहरी प्रमुखस्य प्रहरी उपरीक्षकस्य राजकुमार सिलवालस्य अनुसारेण ओखलढुङ्गा जनपदस्य सिद्धिचरण नगरपालिकायाः तृतीय क्षेत्र निवासी द्वात्रिंशत् वर्षीय पेशल भुजेल, एतस्या नगरपालिकाया पंचमवड़ा क्षेत्र द्वात्रिंशत् वर्षीय ज्योत्सना राई, एतस्यैव स्थानस्य चत्वारिंशत् वर्षीय राधा भुजेल, माने भंजांग ग्रामपालिकाया षष्ठवड़ा क्षेत्र चतुर्विंशति वर्षीय देव बहादुर सार्की, चिशंखुगढ़ी ग्रामपालिकाया चतुर्थवड़ा क्षेत्र षड्विंशति वर्षीय संजित राई, उदयपुर जनपदस्य कटारी नगरपालिकाया द्वितीय वड़ा क्षेत्र निवासिनी चतुस्त्रिंशत् वर्षीय कुमारी मगर च घटनास्थले एव अम्रियन्त। ओखलढुङ्गा जनपदस्य मृतानां पञ्चानां एव जनानां शवाः परीक्षणाय एतदीयं जनपदम्, उदयपुरस्य एकस्य जनस्य च शवः सिन्धुली चिकित्सालयं च प्रापिताः सन्ति इति असौ असूचयत्। ओखलढुङ्गा जनपदात् काष्ठमण्डपाय प्रस्थीय माने तस्मिन् बसयाने चालकेन सह षट्त्रिंशत् जनाः आरूढाः आसन्। त्रिभिः गभीरैः सह षोडशाताः जनाः उपचाराय काष्ठमण्डपस्य विभिन्नेषु चिकित्सालयेषु प्रेषिताः सन्तीति प्रहरीपरीक्षकः सिलवालः असूचयत्। सामान्येन आहतानां चतुर्दश जनानां खुर्कोट स्थिते स्थानीय चिकित्सालये उपचारः जायमानो वर्तते। गतिनियन्त्रणोपकरणस्य विफलतया बसयानम् अनियन्त्रितं भूत्वा भित्तौ संघटितं सद् दुर्घटनेयं भूतेति प्रहरी ज्ञापयति। नेकपा माओवादी केन्द्रेण सहितैः माओवादी घटकैः नवभिः दलैः द्वन्द्वकालिक विषयं क्षेत्राधिकारस्य विपरीततया विलोकयितुम् अपेक्षितम् इत्युक्त्वा आपत्तिः प्रकटिता वर्तते। माओवादी घटकैः नवभिर्दलैः ह्यः संयुक्त पत्रकार सम्मेलनम् आयोज्य सत्यनिरूपण मेलायोगस्य क्षेत्राधिकारस्य द्वन्द्वकालिकानां विषयाणां नियमित न्यायालयात् विलोकनम् अपेक्षितम् इत्युक्त्वा आपत्तिः प्रकटिता अस्ति। माओवादी घटकैः दलैः संयुक्त वक्तव्यं प्रकाश्य द्वन्द्वकालिक घटनानां निरूपणं केनापि व्याजेन सांविधानिक व्यवस्थातः बहिर्भूत्वा कर्तुं न शक्यते इति निश्चितं वर्तते। माओवादी घटकानां दलानां पक्षतः संयुक्त धारणां सार्वजनिकृत्य नेकपा माओवादी केन्द्रस्य महासचिवः देवगुरुङ द्वन्द्वकालिक विषयान् क्षेत्राधिकारस्य विपरीततया विलोकयितुम् अपेक्षितम् इत्युक्त्वा आपत्तिं प्राकटयत्। महासचिवः गुरुङ द्वन्द्वकालस्य सर्वे विषयः सत्यनिर्वण मेलायोगस्य क्षेत्राधिकारे आगच्छन्ति इति अस्मारयत। संयुक्त पत्रकार सम्मेलनस्य आयोजकेषु दलेषु नेकपा माओवादी केन्द्रम, नेकपा क्रान्तिकारी माओवादी, नेपाल समाजवादी दलम, नेकपा दलम, आम जनता दलम, नेकपा बहुमत दलम, वैज्ञानिक समाजवादी कम्युनिष्ट दलम, नेकपा माओवादी समाजवादी दलम, माओवादी कम्युनिष्ट दलम च वर्तन्ते। अद्यतन दिवसाय निर्धारितस्य राष्ट्रियसभायाः उपवेशस्य दिनं समयश्च परिवर्तितेस्त। राष्ट्रियसभा सचिवालयेन ह्यः सूचनां प्रकाश्य अद्यतन दिवसाय निर्धारितः उपवेश विशेष कारणेन आगामिनः चैत्र मासस्य अष्टम दिवसस्य बुधवासरस्य अपराह्नस्य एकवादनाय निर्धारितो स्थिति ज्ञापितं वर्तते। राष्ट्रियसभायाः नियमावल्याः अनुसारेण राष्ट्रियसभायाः अध्यक्षेण कार्यव्यवस्था परामर्शन समितेः परामर्शेन चैत्रस्य अष्टम दिवसाय उपवेशः निर्धारितो स्थिति सूचनायाम् उल्लिखितं वर्तते। नेपालेन आईसीसी नाम्नः अन्तर्राष्ट्रिय क्रिकेट क्रीडा परिषद सम्मेलनस्य एकदिवसीय अन्तर्राष्ट्रिय क्रिकेट क्रीडायाः प्राप्त मान्यता रक्षितास्ति। आईसीसी विश्व विजयोपहारस्य द्वितीय समूहस्य अन्तिम त्रिकोणात्मक श्रृंखलायाः अन्तर्गतं ह्य यूएई देशं पराजित्य नेपालेन एकदिवसीय अन्तर्राष्ट्रिय देशस्य मान्यता रक्षितास्ति। काष्ठमण्डपस्य कीर्तिपुरस्य क्रिकेट क्रीडा रंगशालायां नेपालेन यूएई देश सप्तसप्तत्यधिक शत धावनांकानां विपुलान्तरेण पराजितोऽस्ति। अनेन विजयेन सहैव नेपालेन क्रीडाद्वयस्य क्रीडनात् पूर्वमेव एकदिवसीय अन्तर्राष्ट्रिय देशस्य स्वेन प्राप्ता मान्यता रक्षिता वर्तते। इति समाचाराः।